ఏనాక్షర సమాయమతిగమ్య మహేశ్వరాత్ కృష్ణం వ్యాకరణం ప్రోక్తం తస్మై పాణినే నమః. ఏన ధౌతాగిర పుంసాం విమలై శబ్దవారిభిః తమశ్చాజ్ఞానజం భిన్నం తస్మై పాణినే నమః. వాక్యకారం వరరుచిం భాష్యకారం పతంజలిం పాణినిం సూత్రకారం చ ప్రణతోస్మి మునిత్రయం నత్వా సరస్వతీం దేవీం శుద్ధాం గుణ్యాం కరోమ్యహం పాణినీయ ప్రవేశాయ లఘు సిద్ధాంత కౌముదీం. కృపయా క్షమ్యతాం, కించిత్ విలంబః అభవత్. తత్ర అంతిమ సూత్రే కశ్చన క్లేశః ఆసీత్. ఋగ్వేదస్య మంత్రమాసీత్ ఉదాహరణ రూపేణ, తద్ ద్రష్టవ్యమాసీత్. అతః కించిత్ విలంబః అభవత్. అస్తు, ప్రారంభం కుర్మః. విసర్గసంధి మధ్యే వయం స్మః. తత్ర అస్మాభిః ह्यस्तन कक्षायां विसर्जनीयस्य सह वाशरि शर्परे विसर्जनीयः ससजुषोरुः अतो रोरप्लुतादप्लुते हसि च भो भगो अघो अपूर्वस्य योषि हलि सर्वेषाम्. एतानि सूत्राणि अस्माभिः दृष्टानि, सुलभमस्ति. इदानीं रोसुपि इति అష్టమాధ్యాయస్య ద్వితీయపాదస్య సూత్రం. తత్ అహం శబ్దస్య విషయే సూత్ర అస్య సూత్రస్య ప్రవృత్తిః. రో అసుపి అన్నః రేఫాదేశః స్యాత్ నతు సుపి ఇతి సూత్రార్థః. అత్ర ఇదానీం ఉదాహరణం అహం శబ్దః అస్తి. తత్ర అహన్ శబ్ద నకారాంత శ్రూయతే వా? సమ్యక్ శ్రూయతే వా? శ్రూయతే ఇతి వక్తుం అహం. మహాదేవన్ మహోదయ, శ్రూయతే వా? అస్తు అస్తు. తర్హి అహన్ శబ్దస్య, అహన్ శబ్దం తు జానంతి ఏవ భవంతః. అహన్ శబ్దస్య అంత్య నకారః అస్తి. నకారస్య స్థానే కిం భవతి? రేఫాదేశః భవతి. కదా న భవతి? యది సుప్ పరే భవతి తదా న భవతి. సుప్ ఇత్యుక్తే సుప్రత్యయాః. సుఔజస్తితి ఏకవింశతి సుప్రత్యయాః సంతి. సుప్రత్యయే పరే అహన్ శబ్దస్య నకారస్య రేఫాదేశః న భవతి. यदि सुप्रत्ययः न भवति तर्हि रेफादेशः भवति. उदाहरणम् अहन् 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 इति अस्ति. अहन् अहन् इत्यत्र किं भवति? अहर् अहर् इति भवति. तदनन्तरम् अहरहः इति भवति. अहरहः अहरहः सन्ध्यामुपासीत इति धर्मशास्त्रवाक्यमस्ति. అహరహ సంధ్యాముపాసీత, అహరహ కార్యం కుర్వీత ఇత్యాది వాక్యాన్ని సంతి. ఏవం అహరహ ఇది. యది అహన్ శబ్దస్య అహన్ గణ, అహన్ అహన్ ఇతి అస్తి. తదనంతరం గణ గణ ఇతి అస్తి. అహన్ గణ ఇతి తదా కిం భవతి? అహర్గణః ఇతి భవతి. అహర్గణః ఇతి ఉదాహరణం భవతి. తదేవ మూలే దత్తం అస్తి అహర్గణః. ఇదానీం అగ్రిమసూత్రమస్తి అన్న రేఫాదేశ నతు సుపి అహరహ అహర్గణ. రోరి ఇది అగ్రిమసూత్రం అస్తి. రోరి రహ రి ఇది పదచ్ఛేద. రేఫస్య రేఫే పరే లోపః భవతి. एतद् विधिसूत्रम् अस्ति डोढे लोपः इदानीम् अष्टमाध्यायस्य तृतीयपादे सूत्रं विद्यते तत्र उपरि डोढे लोपः इति सूत्रात् लोपः इति पदम् अनुवर्तते अष्टाध्याय्यां कृपया पश्यन्तु डोढे लोपः इति अस्ति डोढे लोपः इति सूत्रसंख्या त्रयोदशतमं सूत्रं रोरि इति चतुर्दशतमं सूत्रं तेन अर्थः किं सिद्ध्यति रेफस्य रेफे परे लोपः इदानीम् उदाहरणं पश्यामः तत् अत्र किं कृतम् उदाहरणम् अग्रिमसूत्रे दत्तम् उदाहरणम् अग्रिमसूत्रे दत्तम् ढलोपे पूर्वस्य दीर्घोणः इति सूत्रमस्ति ढलोपे पूर्वस्य दीर्घोणः इति सूत्रं षष्ठाध्यायस्य सूत्रम् ढलोपे पूर्वस्य दीर्घोणः षष्ठाध्यायस्य तृतीयपादस्य सूत्रम् अत्र पदच्छेदः ढलोपे पूर्वस्य दीर्घः अणः इति पदच्छेदः ढलोपे इत्यत्र सप्तमी विभक्तिः पूर्वस्य इति षष्ठी विभक्तिः दीर्घः दीर्घः प्रथमाविभक्तिः अत्र समासः कथम् ढलोपे इत्यत्र ढृच रश्च ढौ इति भवति इदानीं ढृच ऋच इत्यत्र रेफादकारः उच्चारणार्थः ढौ लोपयति इति ढलोपः इत्युक्ते यत्र ढकारः रेफः यत्र लुप्तः भवति तत्र किं भवति अणः दीर्घः भवति अत्र एवं ढ्रलोपे इदानीं ढ्रलोपे ढ्रलोपः कथं प्राप्यते ढ्रलोपे इत्यत्र ढ लोपः ढकारलोपः रेफलोपः इति तत्र द्वयमस्ति ढकारलोपः केन सूत्रेण प्राप्नोति डोढे लोपः इति सूत्रेण प्राप्नोति तत् अत एव उक्तं मया कृपया अष्टाध्यायीं पश्यन्तु इति डोढे लोपः इत्यनेन डोढे लोपः इत्यत्र ढकारस्य ढकारे परे पूर्वढकारस्य लोपः इति सूत्रार्थः तद्विशेषतया अत्र न दत्तं परन्तु अग्रे आगच्छति एवं डोढे लोपः इति एकं सूत्रमस्ति तेन पूर्वढकारस्य ढकारे परे पूर्वढकारस्य लोपः रोरि इति सूत्रमस्ति तत्र रेफस्य रेफे परे लोपः इति अस्ति इदानीं ढलोपे एतयोः सूत्रयोः लोपे प्राप्ते ढकार रेफयोः ढकार रेफस्य लोपे प्राप्ते किं भवति पूर्वस्य अणः दीर्घः भवति अण्वर्णः भवेत् पूर्वः तत् अण्वर्णस्य दीर्घः भवति इति सूत्रार्थः उदाहरणं पुनारमते इति अस्ति इदानीं हा ढलोपनिमित्तकः रेफलोपनिमित्तकः इति ढरेफयोर्लोपनिमित्तयोः इति सूत्रार्थः अस्ति मूले ढरेफयोः लोपनिमित्तयोः यदि भवति ढरेफयोः लोपनिमित्तयोः लोपनिमित्तकारणानि सूत्राणि कानि डोढे लोपः रोरि एतयोः सूत्रयोः लोपे प्राप्ते किं भवति पूर्वस्याणः दीर्घो भवति इति सूत्रार्थः. इदानीं उदाहरणं पश्यामः. पुनर्रमते इति अस्ति. पुनर्रमते इत्यत्र कथं भवति? पुनर् इति रेफान्त अव्ययमस्ति. पुनर्रमते इत्यत्र रेफस्य रेफे परे रोरि इत्यनेन पूर्वरेफस्य लोपः. पुनरमते इति अभवत्. तदनन्तरं किं भवति? पूर्वस्य अणः नकारोत्तर अकारः अण्वर्णः. पूर्वस्य अणः नकारोत्तर अकारः अणः किं भवति? दीर्घः भवति. पुनारमते इति भवति. एवमेव हरिर्रम्यः इति अस्ति. इदानीं हरिर्रम्यः इत्यत्र हरिरम्यः वस्तुतः हरिश्रम्यः इति आरम्भः. हरिश्रम्यः इत्यत्र ससजुषोरुः इत्यनेन हरिर्रम्यः इति भवति. रेफस्य रेफे परे लोपः. रलोकेन सूत्रेण रोरि इति सूत्रेण. अनन्तरं किं भवति? ड्रलोपे पूर्वस्य दीर्घोणः इति सूत्रेण पूर्वस्य अणः इत्युक्ते इकारः. इकारस्य दीर्घः हरिरम्यः हरिरम्यः इति भवति. एवमेव शम्भुस्लराजते शम्भुर्राजते शम्भूराजते इति भवति. अवगतं वा सर्वैः? सुलभमस्ति. ढकारस्य उदाहरणम् आवश्यकं वा? अत्र लघुकौमुद्याम् उदाहरणं न दत्तं. तत्र एकम् अस्ति लीडः इति शब्दस्य श्रवणं कृतं वा सर्वैः? लीडः तत्र किं भवति? लिढ् ढ इति भवति. लिढ् ढ लिढ् ढ तत् किं भवति? लिढ् ढ इत्यत्र डोढे लोपः इत्यनेन पूर्वढकारस्य लोपः. एवम् इकारस्य लीडः इति भवति. प्रसिद्धप्रयोगः अस्ति लीढा. प्रसिद्धश्लोकः अस्ति लीडा 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 इति. प्रसिद्धश्लोकः कश्चन अस्ति. लिह् 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 आस्वादने इति धातुः. लिह् इत्युक्ते इदा लेह्यम् इति पदम् आगच्छति किल. लेह्यं लिह् आस्वादने. तत्र लिह् आस्वादने नाम तत् लिक् एल् ऐ सि के लिक् इति आङ्ग्लभाषायां वदामः किल. तत् दूरदर्शनमध्ये अड्वर्टैस्मेण्ट् आगच्छति. तत् किं तत् बिस्केट् बिस्केट् अड्वर्टैस्मेण्ट्. एका बालिका आगच्छति लेहनकार्यं करोति. लीडः इत्युक्ते तस्यैव कृदन्तरूपम् लीडः. लीडः इत्युक्ते यः लेहनं करोति इति अर्थः. कर्तृ कर्तृ यथा पठितः इति भवति तथा लिह् धातोः लीडः इति भवति. इदानीं तदेव उदाहरणं मया इदानीम् एकमेव उदाहरणं स्मर्यते. परन्तु तत्र श्रुतः तदस्ति, परन्तु तत्र दीर्घः न भवति किल. तत् प्रत्युदाहरणमस्ति. तत् न तु अस्य सूत्रस्य उदाहरणम्. अस्य सूत्रस्य प्रत्युदाहरणम् एतत्. भवता यदुक्तं त्रिडः वृडः इति, तद् लघुकौमुद्यामेव अस्ति, परन्तु सूत्रस्य प्रत्युदाहरणम् इदानीम् अग्रे अत्र दीर्घं नास्ति. लीडः इत्यत्र लीडः इत्यत्र दीर्घः अस्ति. इदानीम् अग्रिमविषयः स एव ब्रलोपे पूर्वस्य दीर्घोऽणः इत्यस्मिन् सूत्रे अणः इति किमर्थम् उच्यते? यदि अण्ग्रहणं न क्रियते कुत्रचित् दोषः भवति वा इति यदा उच्यते तदा उच्यते त्रिड् डः इत्यत्र डोडे लोपः इति सूत्रेण लोपः भवति, परन्तु त्रिडः इत्येव रूपः, त्रीडः इति न भवति, यतोहि ऋकारः अण्वर्णः नास्ति. अण् इत्युक्ते कस्य ग्रहणं? पूर्वणकारस्यैव ग्रहणं सर्वत्र. तद् अस्माभिः उक्तं. कुत्र परनकारस्य ग्रहणं कुत्र? अण् इत्युक्ते पूर्वनकारस्य ग्रहणं वा प्रत्याहारे परनकारस्य ग्रहणं वा? कथं ज्ञायते परनकारः कुत्र? इन् इत्यत्र वा अनुदित् सवर्णस्य च प्रत्ययः अन्यत्र सर्वं पूर्वनकारः एव. तत्र सूत्रे व्याख्यातं विशेषतः वृत्तिकारैः विशेषतः व्याख्यातम् अनुदित् सवर्णस्य चाप् प्रत्ययः इत्यत्र एव परनकारः स्वीक्रियते, अन्यत्र सर्वत्र पूर्वनकारः स्वीक्रियते इति अस्माभिः पूर्वं दृष्टम्. तदनुसारेण अत्र अणः इति पूर्वनकारस्यैव ग्रहणम्, अतः अ इ उ इत्येते वर्णाः एव आगच्छन्ति. एवं तृ डोडे लोपः इति लोपे कृते अपि त्रीडः इति न भवति. त्रीडः इति अनिष्टरूपम्. अस्माभिः त्रिडः इत्येव रूपः आवश्यकः. वृडः एवमेव वृडः इति रूपः आवश्यकः. अतः अण्ग्रहणम् अत्र सूत्रे कृतम्. इदानीं मूले अस्ति मनस्रतः. इदानीं मूलं कृपया पश्यन्तु. मनस्रतः इत्यत्र ऋत्वे कृते हसि च इति उक्त्वे रोरि इति लोपे च प्राप्ते. इदानीम् एकं विशेष उदाहरणमस्ति मनस्रतः इति. अत्र किं किं कार्यं कथं भवति इति पश्यामः. मनस्रतः इत्यत्र किं भवति इत्युक्ते अत्र कार्यद्वयं भवितुमर्हति. प्रथमं मनस् इत्यत्र ससजुषोरुः इत्यनेन किं भवति मनर्रतः इति भवति. तदनन्तरं किं भवति रोरि. इदानीमेव पाठितं किल मनर्रतः इति रेफस्य रेफे परे पूर्वरेफस्य लोपः. तर्हि किं भवति रूपं मनारतः इति भवति, यतोहि ढलोपे पूर्वस्य दीर्घोणः इति सूत्रम् आगच्छति मनारथः इति भवति। शब्दस्तु किम् अस्ति, मनोरथः इति अस्ति, कथं मनारथः इति मनारथः इति साधु वा इति इदानीं प्रश्नः। इदानीम् अन्यारीत्या पश्यामः, मनस्रथः इत्यत्र मनस्रथः इत्यत्र हसि च इति सूत्रस्य प्रवृत्तिं कुर्मः। हसि च सूत्रस्य प्रवृत्तिः कर्तुं शक्यते वा? हसि च सूत्रस्य अर्थः कः? हसि च सूत्रस्य अर्थः कः? हसि च रुः स्यात्, रेफस्य स्थाने रुः स्यात्, उः स्यात्, मनस् रतः, मनर्रतः, मन ऊरतः इति भवति। एवं किं जातम् अत्र? हसि च इति सूत्रस्य प्रवृत्तिः उत रोरि सूत्रस्य प्रवृत्तिः? इदानीं तुल्यबलविरोधः किं भवति अत्र? उभयमपि आगन्तुम् अर्हति इति प्रश्नः क्रियते चेत् तदा अग्रिमसूत्रम् आगच्छति, विप्रतिषेधे परं कार्यम्, तुल्यबलविरोधे सति। इदानीं तुल्यबलविरोधः अस्ति, तुल्यबलविरोधः नाम किम्? तुल्यबलविरोधः नाम स्वस्मिन् स्वस्मिन् लक्ष्ये चरितार्थे सति एकस्मिन् युगपत् प्राप्तिः। इदानीं चरितार्थः नाम किम्? चरितार्थः नाम किम्? इदानीम् अस्माभिः सम्यक् रीत्या अवगन्तव्यम् एतत्। हसि च इति सूत्रः शिवो वन्द्यः इति स्थानम् इदानीं पाणिनिः किं कृतवान्? सूत्राणि प्रणिनाय सूत्राणां रचना कृतवान्। सूत्राणां रचनार्थं यदि ऋषिवाक्यमस्ति, ऋषिवाक्यं ऋषिवाक्यस्य अनर्थक्यं न भवति। अनर्थक्यं नाम इट् इस् नाट् वेस्ट्, एनी सूत्र विल् नो सूत्र इस् केन् बि ट्रीटेड् एस् ए वेस्ट् दट् पाणिनि हेस् नाट् क्रियेटेड् दिस् अन्नेसेसरिली इति कदापि न भवति। एवम् एकस्य सूत्रस्य चरित एव्रि सूत्र हेस् गाट् इट्स् पर्पस्, प्रत्येकस्य सूत्रस्य स्वकार्यम् अस्ति। इदानीं हसि च इति सूत्रस्य कार्यं किम्? उकारकरणं। शिवो वन्द्यः इत्यस्मिन् स्थाने हसि च इति सूत्रस्य प्रवृत्तिः भवति, अन्यसूत्रस्य प्रवृत्तिः न भवति शिवो वन्द्यः इत्यत्र। अतः हसि च इति सूत्रः शिवो वन्द्यः इति उदाहरणे चरितार्थः। हसि च इति सूत्रं शिवो वन्द्यः इति स्थाने चरितार्थः। इदानीं रोरि इति सूत्रं कुत्र चरितार्थः? हरिरम्यः इति उदाहरणे चरितार्थः, तस्यापि स्थानं विद्यते। इदानीम् उभौ इदानीम् तुल्यबलविरोधः नाम किम्? इदानीं हसि च इति सूत्रस्यापि स्थानं विद्यते, रोरि इति सूत्रस्यापि अन्यत् स्थानं विद्यते। अत्र मनस्रतः इत्यत्र स्वस्मिन् लक्ष्ये चरितार्थे सति, पूर्वमेव चरितार्थः अभवत्। एतौ द्वौ सूत्रौ चरितार्थौ अभवत् अभवताम् लक्ष्ये चरिता कुत्र? लक्ष्यं लक्ष्ये अत्र लक्ष्यः कः? शिवो वन्द्यः, हरिरम्यः। शिवो वन्द्यः इत्यत्र हसि च इति सूत्रस्य चरितार्थः, हरिरम्यः इत्यत्र रोरि सूत्रस्य चरितार्थः। तदा तुल्यबलविरोधः। इदानीं द कान्सेप्ट् हियर् इस् ईच् सूत्र हेस् गाट् अ पर्पस्। पाणिनि द सूत्रास् कम्पोस्ड् बै पाणिनि आर् नाट् ए वेस्ट् आर् इट् केनाट् बि ट्रीटेड् एस् ए वेस्ट् आर् अनर्थक्यम्, इट् इस् नाट् रिक्वैर्ड्, नाट् नेसेसरि, दट् वि केनाट् टेल्। So when two sutras become when two sutras get their fulfillment in some other place, in some other lakshya. What is the purpose of sutra? Lakshya vyakaranam lakshanam lakshyam nama prayogaha lakshanam nama sutram. These sutras are said to satisfy the lakshyas. So in the lakshya shivovandya Hashicha is satisfied. Hashicha has got a place. Hashicha says, I don't have a place to go, then Hashicha should come in Manasrataha. Hashicha has got a place, a unique place for it to operate. That is Shivovandya. Rori has got a unique place to operate itself, which is Hari Ramya. Both having got their unique places to operate their karyas, they become, these two sutras are called Tulya Bala. And then what they do, they come and swasmin, they are called as Tulya Bala when both are charitartha in one or two lakshyas, and in another lakshya they at once come. Yugapat praptihi tesham yadi bhavati ekasmin lakshye tada tulya bala virodaha iti uchyate. Yada tulya bala virodaha asti tada kim kriyate param karyam iti panini uktavan vipratishedhe tulya bala virodhe sati. If there is an opportunity where two sutras come and operate at one point, take the latter sutras as per the order of ashtadhyayi iti vipratishedhe param karyam iti sutrasya artha. Vipratishede param karyam ityatra vipratishede iti saptami bhakti. Param ityatra prathama bhakti. Karyam ityatra karaniyam iti prathama bhakti. Idanim vipratishede param karyam iti yadi vayam atra vayam kurmaha kim bhavati hashicha iti sutra sankhya ka shashta 61114 rori iti sutrasya ashtamadhyayasya tritiya padasya sutram. Rory is said to be latter. Avagatam va. Therefore, what we will get? Manar rataha. Mana rataha ityeva bhavati. Tarhi vipratishede katam parankaryam iti sutrasya kim bhavati tasya gatihi tasya sutrasya gatihi ka iti prashnah bhavati. Tulya bala virodhe sati parankaryam syat iti mule asti. Idanim tulya bala virodhe sati, tulya bala virodaha nama swasmin swasmin lakshe charitarthe sati ekasmin yugapat praptihi. Maya angla vacha kimartam uktam ityukte, the concept has to be understood very well. Vyakarana is called a lakshana shastra. Lakshanas are the sutras. Lakshyas are the prayogas which the shishtas have done. The prayoga of shishtas, that is the rishi munis, have to be justified by the sutra. Shastra has to do anvakhyana of the prayoga. That is the purpose of shastra. So every sutra composed by Panini cannot be termed as useless, waste, or it need not be applied. Every sutra has got a purpose. So if there are two sutras, each of the two sutras has got a place to go. Purpose means it has to justify one lakshana, at least one lakshana. Hashicha is a sutra which will justify Shivo Vandyaha and say, I have my own place. Shivo Vandyaha is a place where only I can go. Therefore it satisfies that operation, Shivo Vandyaha. Same way Hari Ramyaha, Rory says, I have a place to go, Hari Ramyaha. Therefore, I am satisfied. That means my purpose is fulfilled. Now both these sutras, their purpose being fulfilled, have got an opportunity to come and operate in Manasrata. So now what is the, how we should treat this? Panini says, if such is the case, go for the latter half, latter sutra as per the order. That is why order is important. Vipratishede parankaryam. Did all of you understood till here? सर्वे एतावत् पर्यन्तम् अवगन् अत्र दिस् इस् वेरि वेरि इम्पार्टेण्ट् पायिण्ट्, अतः मया आङ्ग्लभाषया उक्तम्. अवगतम्. इदानीं कः फस्ट् इट् इस् लेटर्. सो नौ द नेक्स्ट् पायिण्ट् कम्स् नौ. तल्यबलविरोधः सति किं भवति, अत्र मूले किं दत्तम् इति उत्वे रोरि इति लोपे च प्राप्ते विप्रतिषेधे परं कार्यम्. पूर्वत्र सिद्धम् इस् आल्सो आपरेटिङ्ग् नौ. 8.3, as you rightly pointed out, the other sutra is in 8.3. 8.3 is a Tripadi sutra. So Tripadi sutras will not be seen by Sapada Saptadhyayi. Therefore Hashicha will not even know that Rori is coming and doing its work. According to Hashicha, Rori is not there in Ashtadhyayi. So what Hashicha will do? It will come and it will do its work before. And Tulya Bala Virode Sati Purvatra Asiddham Iti Ityasya Asiddhatvat Uttomeva. Therefore, even though Vipratishede Parankaryam rule is there, in Manastha Ratha, what actually happens is Sakara gets replaced by Repha and Repha gets replaced, Sakara gets replaced by Uttva. Hashicha by Hashicha, Mana Uratha, Manoratha is the answer. Ataha Manoratha iti Rishinam yaha Shishta Prayogahasti, Tasya Lakshyasya Lakshanam Sampan Lakshanam Kritam Sadhutvam Sthapitam Vyakaranena Vyakarana Shastrena. Yetadeva Paninehe Mahima. एवम् एकस्य शब्दस्य कृते सः एतावत्पर्यन्तम् एक्सर्सैज् करोति. कुत्र स्थापनीयं, कस्य सूत्रस्य, वेर् शुड् ऐ प्लेस् द सूत्र सो दट् दिस् बिकम्स् असिद्ध, दट् बिकम्स् दिस् डस् नाट् सी दट् आल् दोस् थिङ्ग्स् हि हेस् टु सी अण्ड् प्लेस् द सूत्र. इट् इस् नाट् ईज़ी. सो द वे पाणिनि थिङ्क्स् दट् इस् हि इस् काल्ड् अ लक्ष्यैक चक्षुष्क. We are, what we do is we learn IEE, we learn Iko Enachi, and we understand Vyakarana. For him, it is not like this. He is a what he sees is he is a Lakshyaika Chakshushka. He sees all the Lakshyas, entire Veda Rashi, all the Prayogas that has been done by Shishtas up till when he was there. He sees it at one point. It is there in front of his vision. That is why he is called a Lakshyaika Chakshushka. We are called as Lakshyaika Chakshushka. We know sutras. We will say where this sutra can apply. That is what we see. We learn from, in management terms, if we want to say this, top down approach, bottom up approach, iti asti. Management terms madhya asti. Tatra paninihi, top down approach, सः शिष्टानां प्रयोगं दृष्ट्वा सः किं करोति, सूत्राणां रचना करोति. एतत् सूत्रम् अत्र गच्छति, अत्र कार्यं करोति, इदानीं साधुत्वं सम्पन्नम्, अस्य साधुत्वं सम्पन्नम्, अस्य साधुत्वं सम्पन्नम्, एवं सः कार्यं करोति. अस्माभिः कथं कार्यं क्रियते, सूत्रं दृष्ट्वा अस्य सूत्रस्य उदाहरणं किम् इति अस्माभिः पठ्यते. एतदेव अस्माकं तत्र पाणिनेः अस्माकं वेदः एतदेव. पाणिनिः लक्ष्यैकचक्षुष्कः, वयं लक्षणैकचक्षुष्कः. अतः सः एवं रीत्या कार्यं कृत्वा सूत्राणां स्थापनं करोति. यु केन् अप्रिशियेट् पाणिनि ओन्ली वेन् यु अण्डर्स्टाण्ड् अष्टाध्यायी वेरि वेल्. दो वि आर् स्टडियिङ्ग् लघुकौमुदी, अस्माभिः यद्यपि लघुकौमुदी, सिद्धान्तकौमुदी इत्यादि ग्रन्थाः यद्यपि यद्यपि वयं पठामः, तथापि अष्टाध्यायी दृष्ट्या प्रथमाध्यायात् अष्टमाध्यायपर्यन्तम् अष्टाध्यायी दृष्ट्या वयं सूत्राणां सूत्राणां रचना कुत्र स्थापनमिति पश्यामः तदा पृथक् आनन्दः भवति. कथं पाणिनिः एतादृश ब्रिलियंट रीत्या कृतवान्, एतादृश मेधावी कोऽपि भवितुम् अर्हति वा इति अस्माभिः चिन्त्यते. अत एव पाणिनेः अनन्तरं कोऽपि नूतन वैयाकरणक्रमः नागतः पाणिनेः अनन्तरं, यत् सर्वसम्मतं भवितुमर्हति. पाणिनेः प्राक् बहवो वैयाकरणाः आसन्, पाणिनेः अनन्तरं नूतन वैयाकरणमतं वा किमपि सिद्धान्तं वा नूतन सिद्धान्तः नागतः. एतत् सर्वं ज्ञात्वा मनोरथः इत्येव साधु इति ज्ञात्वा अग्रे गच्छामः. एवं विप्रतिषेधे परं कार्यम् इति सूत्रस्य प्रवृत्तिः अत्र न भवति. यद्यपि भवति तत् अत्र न भवति. इदानीम् अग्रे एतदेव अत्र लिखितम्. अत्र अष्टाध्यायी सूत्रक्रमः आद्रियते. मन ऋ रतः इत्यत्र रोरि इति रोरि इति लोपविधायकः उत्त्वविधायकसूत्रस्य हसि च इति तुल्यबलविरोधे सति किं भवति? पूर्वत्रासिद्धम् इति परिभाषासूत्रमपि आगच्छति. पूर्वत्रासिद्धम् इति आगत्य वदति ममापि अत्र कार्यमस्ति इति. एवं हसि च इति सूत्रस्य दृष्ट्या रोरि इति सूत्रः असिद्धः, अतः उकारः एव भवति. अनन्तरं गुण आद्गुणः इति गुण एकादेशः भूत्वा मनोरथः इति रूपं सिद्ध्यति. इदानीम् अग्रिम सूत्रम्. एतत्तदोः सुलोपो अकारो नैसमासे हली इति अस्ति. एतद् किमपि दीर्घसूत्रमस्ति इति कृपया मा चिन्तयन्तु. तत् यद्यपि दीर्घः अस्ति सुलभं कुर्मः. एतत्तदोः इत्युक्ते एतत् शब्दः तत् शब्दः. एतत्तदोः षष्ठीभक्ति द्विवचनं. सुलोपः सुलोपः इत्युक्ते सु औजस् अम् औषस् इत्यादि. तत्र प्रथमसु प्रत्ययः अस्ति, तत्र सु प्रत्ययस्य लोपः सुलोपः. अकः अकः न अकः अकः. अनैसमासे न नैसमासे हलि परे हलि इति भवति. इदानीम् अस्य उदाहरणं पश्यामः, अनन्तरं सूत्रार्थं पश्यामः. एष विष्णुः इति उदाहरणमस्ति. एषः एषस् विष्णुः इति भवति प्रक्रियादशायाम्. एषस् विष्णुः इति भवति तदा किं भवति? एतत्तदोः सुलोपः इति भूत्वा एष विष्णुः इति भवति. एवमेव स शम्भुः इति भवति. हलिपरे एव भवति. वकारः हल्वर्णः, षकारः हल्वर्णः, हलिपरे एव भवति. यदि अच्वर्णः परः भवति एषः अत्र इति भवति चेत् एषः अत्र एष उ अत्र इति भूत्वा हसि च इति हसि च आद्गुणः एङः पदान्तादति इति भूत्वा एषोऽत्र इति भवति. इदानीं हलिपरे एव लोपः भवति, विसर्गस्य लोपः. एतत् शब्दस्य तत् शब्दस्य कुत्र न भवति? अकोः न भवति. अकोः इत्युक्ते न अकः अकः. अविद्यमानः ककारः ययोः तौ अकौ, तयोः अकोः. अकोः न भवति. अकोः न भवति इत्युक्ते अत्र इदानीम् अव्ययसर्वनाम्नाम् अकच् प्राप्तेः इति एकं सूत्रमस्ति. इत्युक्ते सर्वनामशब्दः इदानीम् एषः सः इति अस्ति चेत् एषः इत्यस्य एषः पुरुषः इति अर्थः भवति. एषः इत्यत्र अकच् प्रत्ययः भवति. अकच् प्रत्ययः यदा भवति एषः एषकः एषकः रुद्रः इत्यादि. एषकः इति अपि प्रयोगः अस्ति. एषः अश्वः, एषः बालः, एषकः अश्वः, एषकः बालः इत्यादि प्रयोगाः सन्ति. तत्र एषकः इत्यस्य अर्थः कः? अर्थव्यत्यासः नास्ति. एषः इत्यस्य यः अर्थः अस्ति स एव अर्थः एषकः इत्यस्यापि. अत्र कः विशेषः इत्युक्ते अकच् प्रत्ययः आगतः.
अकच् प्रत्ययः यत्र यत्र भवति तत्र एषः नियमः विसर्गलोपनियमः यदुक्तं तद् न भवति. इदानीम् एष कः रुद्रः इति अस्ति, अत्र एतत् शब्दः इति उक्तं किल, एतत् शब्दस्यैव अर्थः किल एष कः इत्यस्यापि, तत्रापि लोपं कुर्मः एषक रुद्रः इति कुर्मः इति चेत् अत्र सूत्रे उच्यते एतत्तदोः सुलोपः अकः. अकः इत्युक्ते अकोः इत्युक्ते अको अनै समासे हलि, अकोः इत्युक्ते यत्र अकः इत्युक्ते ककारः अस्ति तत्र लोपः न भवति इति, कुत्र लोपः न भवति इति उदाहरणं दत्तम्. अत्र उदाहरणम् एषको रुद्रः इति अस्ति. अनै समासे अपि न भवति. नञ् समासः अस्माभिः ज्ञायते, नञ् समासः, नञ् समासस्य उदाहरणं न धर्मः अधर्मः इति अस्ति. एवमेव असः शिवः इति उदाहरणं, न सः असः, असः शिवः. इदानीं तत्शब्दः अस्ति, तत्शब्दस्य परे शिवः इति हल् वर्णः अस्ति, हलि इति हल् वर्णः अस्ति. इदानीम् अस्माभिः उच्यते लोपः करणीयः वा इत्युक्ते, यदि नञ् समासशब्दः अस्ति तर्हि असः इति, न सः असः इति नञ् समासशब्दः, नञ् समासशब्दः यदि अस्ति चेत् तत्र लोपः न करणीयः. तर्हि तत्र किं भवति यदि लोपः न क्रियते, तत्र किं भवति इत्युक्ते तत्र असशिवः इति लोपं भवति. असः शिवः, असः शिवः न असस् न सः सस् सर् वाशरि इत्यनेन विकल्पविसर्गादेशः भवति, विसर्जनीयस्य सः इत्यपि भवति, स्तुत्वं भवति असशिवः इति स्तुत्वं भवति. एवम् असशिवः इदानीं तदेव न एषः अनेशः इति अस्ति, तत्रापि अनेश यदि अनेशः शिवः इति उदाहरणं, तत्र मूले नास्ति परन्तु एतदपि स्वीकर्तुं शक्यते अनेशः शिवः. अनेशः शिवः इत्यत्रापि एषः इत्यत्र विसर्गलोपो न भवति, यतोहि नञ् समासः अस्ति, अनेशशिवः इत्येव भवति. एतावत्पर्यन्तम् अवगतं वा? पुनः अत्र स्लैड्स् रीत्या गच्छामः. अत्र प्रश्नः पृच्छ्यते नञ् समासातिरिक्तयोः, इदानीं सूत्रार्थम् इदानीं पश्यामः. आककारयोः एतत्तदोः यः सुः तस्य लोपः स्यात् हलि, न तु नञ् समासे. आककारयोः यत्र ककारः नास्ति तत्र अककारयोः एतत्तदोः एतत् शब्दस्य तच्छब्दस्य यः सुः, यः सुप्रत्ययः अस्ति तस्य लोपः भवति. कदा भवति? हलि परे भवति, अचि परे न भवति, न तु नञ् समासे न भवति. अतः एष विष्णुः सशम्भुः एषको रुद्रः इति प्रत्युदाहरणम् अनञ् समासे इत्यत्र असः शिवः. मया एकम् अपरम् उदाहरणमपि उक्तम् अनेशः शिवः इत्यपि अस्माभिः स्वीकर्तुं शक्यते. हलि किम् इत्युक्ते प्रश्नः क्रियते, हलि इति सूत्रे किमर्थम् आवश्यकम् इत्युक्ते एषो अत्र इति इत्यत्र दोषः मा भूत् इति कारणेन हलि इति स्वीकर्तव्यमेव. सूत्रे अकोः पदस्य किं प्रयोजनम् इत्यपि उक्तं, तदेव एषको रुद्रः इत्येव उक्तम्. एषको रुद्रः इत्यत्र एवमेव अस्ति, तद् व्याख्यानं यद् मया उक्तम् एषकस् रुद्रः, एषक ऊरुद्र, एषको रुद्रः इत्यादि भवति. अनै समासे इति समासे किम् इत्युक्ते तदपि उक्तं, न सः असः. हलि किं तदपि उक्तम्. शब्द न सः शिवः, सः शिवः नास्ति not he, not he, a negative meaning.
Sahasati, yeshahasati, yetavisha udaharanani tatra vakya agacchanti. Idanim sochi lope chet padapuranam iti sutram asti. Idani asya sutrasya avagamanartham udaharana dvayam dattam. Semama vivida prabhritim. Viddhi, actually sema viddhi prabhritim. Tatra rigveda, rigveda asti yesaha mantraha yesa mantrasya udaharanam. Rigvede dvitiya mandale चतुर्विंशति सूक्ते अस्ति यकोपि ऋग्वेद संहिता अस्ति चेत् तत्र द्रष्टुं शक्यते एतद् उदाहरणं तत्र अस्ति एतद् अन्वेषणे एव मम समयम् अभवत् अद्य अत्र किं भवति इति अहं वदामि इदानीम् अस्य सूत्रे किम् उक्तं सोचि लोपे चेत् पादपूरणं सः अचि लोपे चेत् पादपूरणं सः अचि लोपे अचिलोपे अपि कदाचित् भवितुम् अर्हति यानि पूर्वस्मिन् सूत्रे किम् उक्तम् हलि एव लोपः भवति अचिलोपः न भवति इति उक्तम् इदानीम् अस्माभिः प्रश्नः क्रियते सैष दाशरथि रामः इति उदाहरणं तत् स्वीकुर्मः प्रथमं सैष दाशरथि रामः इति अस्ति सैष दाशरथि नाम स एष तत्र स एषः इति अस्ति स एषः इत्यत्र सः एषः इति भवेत् तत्र सैष इति कथं सन्धिः स एषः इति भवेत् चेत् अत्र विकल्पद्वयं भवितुमर्हति स एषः इति भवितुमर्हति स यै एषः इति भवितुमर्हति अत्र अस्माभिः उच्यते सैष दाशरथि रामः सैष राजा युधिष्ठिरः सैष कर्णो महात्यागी सैष भीमो महाबलः इति प्रायः श्लोकः अस्ति मया तत् सैष दाशरथि रामः इति अनुष्टुप् श्लोकस्य एकं पादं सैष दाशरथि नाम अत्र अनुष्टुप् छन्दसि एकस्मिन् पादे अष्ट अक्षराणि भवन्ति इदानीम् अस्माभिः अत्र लोपः न क्रियते चेत् स सारि अस्माभिः स एषः इत्यत्र एकारः अचवर्णः अस्ति अत्र यदि अत्र यदि लोपः क्रियते चेत् तदा स एषः इति भवति तदा कति अक्षराणि भवन्ति एकम् अक्षरम् अधिकं भवति नव अक्षराणि भवन्ति नव अक्षराणि यदि भवन्ति चेत् छन्दोभग्नः भवति पादपूरणम् अस्मिन् सूत्रे पादपूरणम् इत्यनेन अभिप्रायः छन्दोभङ्गः यदि भवति चेत् तदा पादपूरणं यदि न भवति चेत् पादपूरणं यदि भवति चेत् अचिपरे अपि लोपः भवति अवगतं वा सैष दाशरथि रामः सैष राजा युधिष्ठिरः सैष कर्णो महात्यागी सैष भीमो महाबलः इति श्लोकः सैष दाशरथि रामः इत्यत्र यदि अस्माभिः लोपः क्रियते स एषः स एषः इत्येव स्थाप्यते चेत् तदा किं भवति छन्दोबद्धः भवति अतः अस्माभिः किं क्रियते सैष दाशरथि रामः इत्येव क्रियते इदानीम् अत्र एवम् अन्यत् उदाहरणं यदस्ति
सस इमाम सेमाम इति अस्ति किला सस इमाम इति अस्ति तत्र मंत्रः एवम् अस्ति तत्र जगति छन्दः इति अस्ति जगति छन्दः इत्यत्र द्वादश अक्षराणि भवन्ति इति तत्र ऋग्वेदे अस्ति जगति छन्दसि प्रत्येकस्मिन् पादे द्वादश अक्षराणि भवन्ति इदानीं अत्र सेमा विड्ढि प्रभृतिं य ईशिषे इति मन्त्रः तत्र सस् इमाम् इति यदि सकारस्य लोपं कृत्वा गुणः क्रियते चेत् सेमाम् इति भवति तदा द्वादशाक्षराणि सिद्ध्यन्ति तदा किं भवति छन्दोभङ्गः न भवति यदि सस् इमाम् इत्यत्र सर् इमां स य इमां पुनः यकारलोपं कृत्वा स इमाम् इति स्थाप्यते चेत् छन्दोभङ्गः भवति तत्र एकम् अधिकम् अक्षरं भवति छन्दोभङ्ग इत्युक्ते पादपूरणं न भवति अतः सोचिलोपे चेत् पादपूरणम् इदानीं सूत्रार्थं पश्यामः स इत्यस्य सोर्लोपः स्यात् अचि पादश्चेल्लोपे सत्येव पूर्येत यदि लोपे सत्येव पादः पूर्येत तदा अचिपरे अपि लोपः भवति भवितुमर्हति इति सूत्रार्थः अवगतं वा सर्वैः एवं सः इस् अ वेरि दीर्घदर्शी अण्ड् इस् अ विजनरी पर्सन् इदानीं तत् एतत् सर्वं विधिसूत्रं पञ्चपदानि एतत् सर्वं ज्ञायते स्वरवर्णे परे अपि लोपः भवति कदा पादपूरणं यदि भवितव्यम् इत्यादि एवं विसर्गसन्धिः समाप्तः पञ्चसन्धिप्रकरणं समाप्तम् इदानीम् अग्रिमकक्षायां मया चिन्तितं किमपि यदि शक्यते चेत् अहं पुनरावर्तनं करोमि तत्र नो चेत् अहं चिन्तितवान् तत् एतानि सूत्राणि पुनः शब्दप्रकरणे वा यस्मिन् कस्मिन् प्रकरणे वा पुनः आगच्छन्ति अतः मया चिन्तितं तत् पुल्लिङ्गप्रकरणे यदा यदा आगच्छति तदा एव वक्तुं शक्यते इति मया चिन्तितम् अस्तु तद् यदि पुनरावर्तनं सन्धिप्रकरणस्य पुनरावर्तनं कर्तव्यं चेत् देट् विल् टेक् अट्लीस्ट् 3 क्लासस् वि केन् गो फर्दर् आर् वि केन् रिवैस् भवताम् अभिप्रायः कः इति सूचयन्तु अहम् असैन्मेण्ट् अपि ददामि श्वः वा परश्वः वा असैन्मेण्ट् प्रेषयामि यदा समयः लभ्यते तदा प्रेषयन्तु तत्र डेड्लैन् किमपि नास्ति अहम् अच्सन्धिप्रकरणस्य असैन्मेण्ट् सज्जीकृतवान् अस्मि किञ्चित् प्रूफ् रीडिङ्ग् इत्यादिकं करणीयं कृत्वा प्रेषयामि प्रायः शुक्रवासरे प्रेषयामि Every sutra has got no you should ask a reverse question I think every pratyahara does it have a coverage or every so so I didn't get your question sir if you can repeat I understood that there are 42 pratyaharas or 44 pratyaharas that we 44 pratyaharas we have a list okay I sent you that list. Along in that list you have we have a Udaharana Sutra also. all these sutras need not come in Sandipakaranam. They may come in some other Atodirgohi and all, they will come in Dhatu Prakaranam, that is in Tiganta Prakaranam. So Yai Pratyahara you will not get anywhere here. Like that there are some Pratyaharas, Vishesha Pratyaharas which are required for Tiganta Prakaranam. Some Pratyaharas which are required for example, there is one more Pratyahara called Inashidham. In Pratyahara, in Sandhi Prakaranam we didn't encounter any in till now. In Pratyahara is there in Inashidham Lunglitang Donga Titi Sutravasti. That in Pratyahara is coming. We will use in Pratyahara only when that sutra comes. So did I answer your question, sir? Correct. Did I answer your question? Now what is your question? I could not understand. I told some answer. No, all sutras are not covered in Udaharana Sutra. That is one of the Udaharanas. See, and Urandraparaha, why should I tell, I take Urandraparaha? I could have told this sutra, no? What, just know what we learnt. See, now you see, you can take for Anna, you can take this sutra, no? Pralope Purvasya Dhirgonaha can be a Udaharana for Anna Pratyahara. That was only one example given for the Ayurveda list. Have I clarified? Astu, Pratyahara Mahodaya. Ataha iti pradam. Hraswa Hraswa karaha eva. Okay. Ekamisham, tada slide open karam. Aplutad ityasya karyam pratak, ataha ityasya karyam pratak asti. Idanim asmabhi evam ekam sham, tad sutram ekam. Which class it was there? Plutat 36, last class, huh? Okay. 35, okay. Atras. Ato roru aplutad aplute ityatra. Aplutad ataparasya roho syad aplute ati pare. Atra purva para. Idani matra pashyanto shivas archyaha iti asti. Shivas archyaha iti udaharanam. Atra shivasya iti vakarottara akaraha yaha asti saha अप्लुत अतस्ति। एक निमिषम्, दट इज डिफरेंट। अप्लुताद अत् वकारोत्तर अकारः अप्लुताद अत् अस्ति, ततः परं रेफः अस्ति, तदनन्तरम् अतिपरे, तदनन्तरम् अतिपरे, अकारे परे। करेक्ट सर, अप्लुते अतीत आल्सो तप्रकरणम तत्र अस्ति। अतः इति, अतः इदानीं कस्, इदानीं अप्लुते अति परे यः शिवर, उदाहरणम् एकं निमिषं पश्यामः। शिवस् अर्चः इत्यत्र अप्लुताकारः कुत्र अस्ति? अप्लुताकारः ह्रस्वकारः, क्वेश्चन इज करेक्ट। एकनिमिषम् अहं वदामि तस्य उत्तरम्। एकनिमिषम्, तत्र बालमनोरमा व्याख्यान, तत्र उदाहरणं दत्वा वक्तव्यं, तत्र प्रत्युदाहरणम् आवश्यकम्। इत्युक्ते अग्रिमकक्षायाम् अवश्यं वदामि, तत्र उदाहरणं दृष्ट्वा अहं वदामि। इदानीम् उदाहरणं द्रष्टुमेव पुस्तकं स्वीकृतवान्, तत्रापि उदाहरणं नास्ति, मयापि न लिखितं, परन्तु दूरा धूते च already 10:23. I will definitely answer this in the next class. I will look at it and give an answer. So next class, shall we do revision or should we go ahead? What is the majority? So I think पदस्य सर्वेषामि सर्वेषामि इत्यत्र सर्वेषां ग्रहणं किमर्थम् पद्मावती तत्वा That is what I told in class. Sarvesha matanusarena lopaha bhavati. Lopas. Right. Tatra bho bhava bho apurvasya yoshi vyor lagu prayatnataraha shakatayanasya lopashakalyasya ityadi sutrani santi. शाकटायनस्य शाकल्यस्य सर्वेषाम् आचार्याणां मते हलि इति भवति तद् प्रायः स्लैड् मध्ये अपि अस्ति अप्लुतादित्यस्य तत् सन्देहम् अग्रिमकक्षायां वदामि अग्रिमकक्षायां शब्दप्रकरणस्य प्रारम्भं कुर्मः कृपया आरम्भकक्षां डु नाट् मिस् द फस्ट् क्लास् यतोहि रामशब्दस्य इत्यादि बहवः प्रक्रियाः भवन्ति तदा आरम्भे फस्ट् क्लास् इस् वेरि वेरि इम्पार्टेण्ट् ये तत्र साधारणतया आगच्छन्ति कक्षां प्रति कृपया इफ् यु आर् मिस्सिङ्ग् प्लीस् टेल् मी ऐ केन् पोस्ट्पोन् द क्लास् बट् ऐ वाण्ट् एव्रिबडि टु कम् फार् द फस्ट् क्लास् इन् अजन्तपुल्लिङ्गप्रकरणम् अदर्वैस् यु विल् नाट् अण्डर्स्टाण्ड् एनीथिङ्ग् इन् अजन्तपुल्लिङ्गप्रकरणम् इफ् यु मिस् फस्ट् क्लास् कृपया अग्रिमकक्षार्थं सर्वे आगच्छन्तु इति प्रार्थये नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम् अद्य सुजाता भगिनी नागतवती वा ओ अस्तु लक्ष्मीप्रिया बाला इत्युक्ते सा एव वा सुजाता बाला राइट